अस्तु, नमस्कारः. सन्धिविषयकपुनरावलोकनवर्गः अस्ति. यथा भवन्तः जानन्ति, शनिवासरस्य वर्गे ये विषयाः अधीताः तेषाम् अस्मिन् वर्गे पुनरावलोकनम्. अपि च एतदपि वक्तव्यमस्ति यद् वस्तुतः सुब्रह्मण्यमहोदयस्य एव वर्गः. सुब्रह्मण्यमहोदय प्रयाणं कुर्वन् अस्ति इति कृत्वा प्रायः फेब्रवरी मासस्य आरम्भपर्यन्तम् अस्मिन् वर्गमहम् इमं वर्गमहं चालयामि इति. अस्तु, आरम्भं कुर्मः. केन आगतं नूतनतया?
भगिनी अहं सरला अस्मि.
सरला भगिनी, अस्तु. अनन्तरं अस्तु, बालसुब्रह्मण्य श्रुतं. किं सरला भगिनी किम् उक्तवती?
10 निमिषं म्यूट् करोमि.
अस्तु अस्तु अस्तु, आरभामः. तर्हि सन्धिः इति वर्णविज्ञानस्य विषयः इति जानीमः. यदा वर्णानाम् अतीवनैकट्यं भवति अथवा सन्निधिः भवति, तदा वर्णयोः मध्ये कीदृशी परिस्थितिः भवति, कस्य वर्णस्य परिवर्तनं जायते, उभयोः वर्णयोः मध्ये उभयोः वर्णयोः परिवर्तनं जायते वा अथवा एकस्य वा इत्यादीन् विषयान् सन्धिपाठे वयम् अध्येतुं शक्नुमः. अस्तु इति कृत्वा आरभामः. जगन्नाथमहोदय, तत्र चतुर्थपुटे एव सन्धिः इति अस्ति, कृपया ततः आरभ्य.
चतुर्थपुटे अस्तु, सन्धिः. यत्र आदेशादिकं सम्भवति तादृशः वर्णयोः अतिशयितः सन्निधिः सन्धिः इति उच्यते. सन्धिविषये अधिकं ज्ञातुम् आदौ एते विषयाः अस्माभिः ज्ञातव्याः सन्ति. अक्षरं श्रवणेन्द्रियग्राह्यम् अक्षरं, तस्य एव वर्णः इत्यपि नाम. अक्षरं त्रिविधं, स्वरः, अयोगवाहः, व्यञ्जनम् इति च. स्वरः
स्वतन्त्रपर्यन्तं किञ्चित्
सम्भवति.
हा, सारांशत्वेन यत् पठितम् अधुना.
आमादेशादिकम् इत्युक्ते पृष्ठं पश्यतु, सप्तमपृष्ठ अस्तु. आदेश सप्तमपृष्ठं पठितवान्. आदेशादिकम् इति आदेश लोप एते सर्वे वा?
तादृशं सत्यम्
अस्तु. तर्हि अनेकानि विधानि सन्धयः, सोरि,
समीचीनमेव. सन्धयः समीचीनमेव,
सन्धयः. किन्तु तर्हि अनेकानि विधानि तु अशुद्धं प्रायः, ते विशेषविशेषं भावम् एव भवति प्रायः. किन्तु यादृशं सन्धयः सन्ति, ते सर्वे वर्णयोः मेलनस्य अतिशयित सन्निधि अति समीपे ये सन्ति तेषां परिवर्तनं भवन्ति, तस्य नाम सन्धिः इति.
परिवर्तनं कदा भवति?
पदमध्ये वा पदान्ते वापि.
कदा भवति इत्युक्ते यदा अतिशयितः सन्निधिः भवति इत्युक्ते, सन्निधिः इत्युक्ते नैकट्यं, सामीप्यम्. यदा वर्णयोः अतिशयतः सन्निधिः सन्निधिः इत्युक्ते संहिता अथवा नैकट्यं सामीप्यं भवति तदा तयोः मध्ये सन्धिः भवति. अपि च यदा सन्धिः भवति तदा आदेशादिकं भवति. आदेशादिकम् इत्युक्ते के के महोदय?
आदेश लोप आगम
प्रकृतिभावः.
आदेश आगम लोप प्रकृतिभावः.
एतेषु एकं कार्यं तु भवति एव सन्धिविषये. अस्तु, तर्हि सन्धिविषये ज्ञातुम् अग्रे गन्तव्यं भवति. अग्रे गत्वा प्रथमम् अक्षरम् इति ज्ञातव्यम्. अक्षरम् इत्युक्ते
यत् श्रवणेन्द्रिय करणद्वारा वयं श्रुत्वा जानीमः, तस्य उच्चारणं जानीमः, तस्य तेषां नाम भवति वर्णाः.
हा, वर्णः अथवा अक्षरम् इति.
अक्षरं
श्रवणेन्द्रियग्राह्यम् इत्युक्ते कर्णाभ्यां यद् ग्राह्यं तदेव अक्षरम् इति. अस्तु, अत्र कोऽपि प्रश्नः वा कस्यचित्?
भगिनि,
हा,
अत्र आदेशादिकम् इति शब्दस्य विषये किञ्चित् वदति वा? आदेशादिकम् इति शब्दः केवलम् एकवचनं वा?
आदेशादिकानि इति अपि भवितुम् अर्हति. तत्र किं जातम् इत्युक्ते आदेशः आदिः यस्य आदेशादिः इति क इति समासान्तप्रत्ययः अस्ति. यथा विषयकः इति वदामः खलु, सन्धिविषयकः इति वदामः खलु, तदा आदेशादिकं कार्यम् इत्यस्मिन् अर्थे अस्ति. तत्र कार्यम् इत्यस्य प्रायः स्यात् विशेषणं तदर्थं. किन्तु एकस्मिन्नेव लिङ्गे इति नास्ति. क प्रत्ययः यदा युज्यते समासान्ते तर्हि लिङ्गपरिवर्तनमपि स्यात्.
अत्र लिङ्गपरिवर्तनमपि भवति. समस्तपदं केवलम् अत्र एकवचनरूपमेव.
नपुंसकान्तरूपम् अस्ति इति भाति, यतोहि यत्र आदेशादिकं कार्यं सम्भवति इति पठामश्चेत् स्पष्टं भवति. अस्तु, नूतनतया केन आगतम् अधुना?
पुष्पा भगिनी.
अस्तु अस्तु, अग्रे लक्ष्मी भगिनी.
पुस्तकात् पठामि वा?
आमां, पुस्तकात् एव.
स्वरः स्वतन्त्रतया उच्चार्यमाणः वर्णः स्वरः. आयि उ रु नृ ए ओ ऐ औ इत्येते स्वराः. स्वरः त्रिविधः, ह्रस्वः दीर्घः प्लुतश्च इति. वर्णोच्चारणकालः मात्रा इति उच्यते. एकमात्राकालेन उच्चारयितुं योग्यः स्वरः ह्रस्वः. आयि ओ अयि ओ रुण्रु एते ह्रस्वाः. द्विमात्राकालेन उच्चारयितुं योग्यः स्वरः दीर्घः. आयि ओ रु ए ऐ ओ औ एते दीर्घाः. त्रिमात्राकालेन उच्चारयितुं योग्यः स्वरः प्लुतः. अत्र आ इ उ रु लृ ए ऐ ओ औ एते प्लुताः. त्रिमात्राकालेन उच्चार्य प्लुताः त्रिमात्राकालेन उच्चार्यन्ते इति बोधयितुं वर्णस्य पुरतः त्रीणि इति संख्या लिख्यते.
अस्तु भगिनि, वदतु.
अत्र स्वरः इत्युक्ते किम् इति दत्तम्. स्वतन्त्रतया उच्चार्यमाणः स्वरः इत्युक्ते अत्र अक्षराणां विषये स्वराः अयोगवाहाः व्यञ्जनानि इति विभागः अस्ति. अत्र प्रथमतया स्वरः इत्युक्ते किम् इति विषये दत्तमस्ति.
स्वरः इत्युक्ते कः,
स्वरः इत्युक्ते कः इति अत्र अस्ति. स्वतन्त्रतया उच्चार्यमाणः इत्युक्ते यदि वयं स्वरस्य उच्चारणं कर्तुम् इच्छामश्चेत् किं अन्य
स्वतन्त्रतया इत्युक्ते अन्यवर्णस्य साहाय्यम् अपेक्षितं वा स्वरस्य उच्चारणार्थं?
न, अन्यवर्णस्य साहाय्यं विना एव वयं वक्तुं शक्नुमः. अत्र ऐ ओ रो रो ये के ओ ऐ औ एते स्वराः. स्वराः त्रिविधाः सन्ति, ह्रस्वः, दीर्घः, प्लुतः इति. किमर्थं चेत् अत्र स्वरस्य उच्चारणकालः इत्युक्ते कियान् समयः पर्यन्तं वयं सः स्वरः उच्चारयामः इति एवं मात्रा इति उच्यते. यदि वयं एकः स्वरः केवलम् एकमात्राकालं पर्यन्तम् एव उच्चारयामश्चेत् सः स्वरः ह्रस्वः, यथा सर्वे ह्रस्व अक आ इ उ रु नृ एते ह्रस्वस्वराः. यदि वयं द्विमात्राकालपर्यन्तम् एकं स्वरम् उच्चारयामश्चेत् सः स्वरः दीर्घस्वरः. अत्र दत्तमस्ति आ इ उ तथा त्रिमात्राकालपर्यन्तम् उच्चारयामश्चेत् ते स्वराः प्लुताः. यथा प्लुतस्वराणाम् उच्चारणसमये तत्र स्वरस्य पुरतः त्रीणि संख्या लिखामः. किमर्थं चेत् तत्र त्रिमात्राकालपर्यन्तं तं स्वरं वयम् उच्चारयामः इति.
तथैव अस्ति भगिनि, बहु समीचीनम्. अस्तु, कियान् समयः आवश्यकः यथा भगिन्या उक्तं, तस्य आधारेण ह्रस्वः, दीर्घः, प्लुतश्च इति स्वरेषु भेदः वर्तते. अपि च अग्रे गत्वा इतोपि किञ्चित् द्रक्ष्यामः, उदात्त अनुदात्त स्वरितः इति अपि प्रभेदाः सन्ति स्वरेषु. तदनन्तरम् अनुनासिक अननुनासिक अपि इति भेदः अस्ति स्वरेषु. अनुनासिक इत्युक्ते मुखेन च नासिकया उच्चार्यमाणः वर्णः इति. अननुनासिक इत्युक्ते केवलं मुखनासिक इति न, कण्ठादयः इति अन्यानि स्थानानि सन्ति खलु मुखे, तस्य साहाय्येन उच्चार्यमाणाः स्वराः इति. तद्विहाय मात्रायाः आधारेण एतानि विभजनानि सन्ति स्वरेषु, ह्रस्वः, दीर्घः, प्लुतः इति. अस्तु, समीचीनमस्ति
भगिनि. भगिनि, अत्र उच्चार्यमाणः इति शब्दः अस्ति, तत्तु शाणच् प्रत्ययं वा?
आमाम् आं भगिनि, सत्यं, शाणच् प्रत्ययः. कर्मणि, वस्तुतः कर्मणि शाणच् अस्ति. अग्रे आगच्छति, अस्मिन्नेव पुस्तके एकः पाठः अस्ति तस्य विषये. समीचीनमस्ति. नूतनतया केन आगतं?
राजी.
राजी भगिनि, अस्तु, समीचीनम्. अग्रे राधिका भगिनी पठति वा?
अस्तु अस्तु भगिनि. अयोगवाहः, अनुस्वारः विसर्गः जिह्वामूलीयः इति. अनुस्वारः स्वरस्य उपरि बिन्दुः अस्ति चेत् अनुस्वारः इति वक्तुं शक्नुमः. बिन्दुद्वयम् अस्ति चेत् विसर्गः इति. ख ख तयोः पूर्वम् एकः चिह्नम् अस्ति, तत्तु जिह्वामूलीयः इति वक्तुं शक्नुमः. खगाभ्यां पूर्वः अर्धविसर्गसदृशो वर्णः जिह्वामूल्यः इति वक्तुं शक्नुमः. तावदेव फ फ इत्ययोः पूर्वं चिह्नम् अस्ति चेत् उपद्यमानीयः इति. अपाभ्यां पूर्वः अर्धविसर्गसदृशो वर्णः उपद्यमानीयः.
उपद्यमानीयः
अस्तु अस्तु उपद्यमानीयः. ख ख फ फ एते चत्वारः अयोगवाहः. इत्युक्ते उदाहरणार्थं बालः प्रथमं तु अनुस्वारः. अनुस्वारस्य उच्चारणं मकार अहम्
वस्तुतः यद्यपि तथा वदामः अनुस्वारस्य उच्चारणस्थानं नासिका एव. नासिकया वायुः गच्छति इत्युक्ते उदाहरणार्थं संयोगः इति संस्कृतं तथैव उच्चारणीयम् इति.
नासिकया अस्तु अस्तु नासिकया मकार वक्तुं शक्नुमः वा? नासिकया
मकारः मकारः तु अनुनासिकवर्णः खलु, अनुनासिकव्यञ्जनं. तर्हि मुखनासिकया मुखेन अपि वायुः गच्छति, नासिकया अपि वायुः गच्छति. अनुस्वारस्य किञ्चन भेदः अस्ति एव, कश्चन भेदः अस्ति एव, लघुभेदः सूक्ष्मभेदः एव, यतोहि नासिकया वायुः गच्छति. अनुस्वारः तादृशवर्णः.
धन्यवादः. अनुस्वारः नासिकया वायुः गच्छति मकार अनुस्वारः इति वक्तुं शक्नुमः. विसर्गः इति हकार वत् उच्चारणं भवति. खख जिह्वामूलीयः उदाहरणार्थं बालः करोति इति पदद्वयं स्वीकुर्मः चेत् बालः करोति इति उच्चारणं भवति. अत्र बालः सो विसर्गः विसर्गस्य पूर्ण उच्चारणं भवति चेत् बालः इति आगच्छति, परन्तु अत्र तु बालः करोति एव भवति. सो विसर्गस्य अर्ध विसर्गसदृशः वर्णजिह्वामूल्यः. तावदेव अर्धविसर्गसदृशः वर्णः उपद्मानीयः. तत्र अन्तःपुरः अथवा बालः पिबति इति, बालः पिबति इति बालः पिबति इति आगच्छति. तावदेव जिह्वामूल्यः उपद्मानीयः.
हा हा समीचीनमस्ति भगिनि. तर्हि एते वर्णाः ये अयोगवाहाः इति उच्यन्ते, अनुस्वारविसर्गः जिह्वामूलीयः अपि च उपध्मानीयः. अयोगवाहाः इति किमर्थम् उच्यते इति पुटस्य अधोभागे, पञ्चमपुटस्य अधोभागे एका टिप्पणी अस्ति. भगिनी पठति वा? राधिका भगिनी.
अस्तु अस्तु. न विद्यते योगः माहेश्वरसूत्रेषु एतां न अयोगाः. योगः सम्बन्धः. वहन्ति इति वाहाः प्रयोगं निर्हन्ति इति अर्थः. अयोगाश्च ते वाहाश्च अयोगवाहाः. माहेश्वरसूत्रेषु अयोगवाहाः न सन्ति तत्र इति वदन्ति.
अग्रे पठेम खलु माहेश्वरसूत्राणि इति. तेषु चतुर्दशवाक्येषु एतेषाम् उल्लेखः एव नास्ति, अनुस्वारस्य वा विसर्गस्य, जिह्वामूलीयस्य, उपद्मानीयस्य उल्लेखः एव नास्ति इति कृत्वा न विद्यते योगः अथवा सम्बन्धः माहेश्वरसूत्रेषु इति अयोगः. वाहः इत्युक्ते भगिनि
न जानामि महोदय.
वाहः वहन्ति इति वाहः, नदी वहति अथवा भारं नदी वहति इत्यस्मिन् तु फ्लो इति अर्थः, किन्तु कश्चन भारं वहति इत्यस्मिन् अर्थे तु नयति इति अर्थः. तर्हि एते यद्यपि महेश्वरसूत्रेषु न अन्तर्भूताः तथापि प्रयोगं निर्वहन्ति. नी उपसर्गपूर्वक वहधातुः, वहति निर्वहति, तदर्थं वहन्ति इति वाहः, भाषायां प्रयुक्ताः भवन्ति इति कृत्वा
अयोगः
इति अयोगवाहाः. अयोगश्च ते वाहाश्च अयोगवाहाः इति अस्ति एतेषां नाम. अस्तु, अग्रे विद्या भगिनि.
व्यञ्जनम् अर्धमात्राकालेन उच्चारयितुं योग्यः वर्णः व्यञ्जनं, तच्च वर्गीयव्यञ्जनम् अवर्गीयव्यञ्जनं च द्विविधं. तत्र क ख ग घ ञ कवर्गः, च छ झ झ ञ चवर्गः, ट ठ ढ ढ न टवर्गः, त थ द ध न पवर् तवर्गः, क्षम्यतां पवर्गः नो तवर्गः, फ फ भ भ म पवर्गः. एतानि पञ्चविंशतिः वर्गीयव्यञ्जनानि. य र ल व च क्ष सः एतानि अष्ट अवर्गीयव्यञ्जनानि. प्रथमम् एतद् वदामि वा, अनन्तरं?
अस्तु अस्तु, एतदुक्त्वा अग्रे पठतु.
पूर्वं वयम् अक्षरं त्रिविधम् इति दृष्टं, तत्र तृतीयविधम् आसीत् व्यञ्जनं. व्यञ्जनम् इत्युक्ते किम्? अर्धमात्राकालेन उच्चारयितुं योग्यवर्णः व्यञ्जन इत्युक्ते व्यञ्जनं स्वतन्त्रतया न उच्चार्यमाणः वर्णः, तस्य उच्चारणार्थं स्वरस्य आवश्यकता अस्ति. क इति स्वीकुर्मः, क योगः अ क इति वदामः, तत् व्यञ्जनम् अस्ति. व्यञ्जनं द्विविधं, वर्गीयव्यञ्जनम् अथवा अवर्गीयव्यञ्जनं. कवर्गस्य वर्णाः, चवर्गस्य वर्णाः, तवर्गस्य वर्णाः, तवर्गस्य वर्णाः, पवर्गस्य वर्णाः इति पञ्चविंशति वर्गीयव्यञ्जनानि सन्ति. य र ल व श स ह एतानि अष्ट अवर्गीयव्यञ्जनानि.
अग्रे समीचीनं, केन आधारेण वर्गीकरणं कृतं भगिनि?
स्थानतुल्यम् इति उच्चारणस्थानं मुखे कथम् अस्ति तद् आधारेण कण्ठीयवर्णः, तालव्यवर्णः, कवर्गः कण्ठ्यवर्णः, चवर्गः तालव्यवर्णः, टवर्गः मूर्धन्यवर्णः, तवर्गः दन्त्यवर्णः, पवर्गः औष्ट्यवर्णः.
हा, समीचीनमस्ति इत्येव अस्ति वार्ता. मुखे उच्चारणस्थानं दृष्ट्वा वर्गीकरणं कृतमस्ति. वस्तुतः यर ल व श श सः इत्येषामपि स्थानानि एतेषु एव अन्तर्भूतानि, कुत्रचित् कण्ठ्य कण्ठे वा तालौ अथवा मूर्धायाम् इति. परन्तु अन्ये अपि किं वदामः पेरामीटर्स् आगच्छन्ति वर्गीकरणार्थं, क ख ग घ न, तत्र केवलं स्थानमिति न खलु, आभ्यन्तरप्रयत्नः, बाह्यप्रयत्नः इत्यादिकमपि अस्ति. तेन आधारेण हा पञ्चवर्गाः निर्मिताः. एतेषु तत्तत् वर्गस्य व्यञ्जनानि गच्छन्ति, तदनन्तरम् अवर्गीयव्यञ्जनानि य र ल व श श स ह इति अस्ति. अस्तु
भगिनि, अहं जानामि श दन्त्यवर्णः अस्ति.
एकनिमिष एकनिमिष, कः दन्त्यवर्णः?
क्षम्यतां, श तालव्यवर्णः, श
कः कः शकारः शिव इत्यस्य शकारः वा हा तत्तु तालव्यवर्णः समीचीनं
मूर्धन्य क्ष इति मूर्धन्यशकारः
हा मूर्धन्य कृष्णः इत्यस्य शकारः मूर्धन्यः स इत्यस्य वदनसमये मुखे जिह्वायाः स्थानं किं यदा वयं स इति दन्त्य तालव्य तु हा शङ्करशकारः तालव्यः कृष्णशकारः मूर्धन्यः स इति दन्त्यः यद्यपि त त ध द न इव साक्षात् दन्तेन सह स्पर्शः न स्यात् तथापि तत्तुल्यमस्ति सकारः हकारः कण्ठ्यः पुनः लकारः अपि दन्तः दन्तः ल इति दन्त्यः हा र इति मूर्धा मूर्धन्यः यकारः अपि तालु तालव्यः इति अस्ति
या कथं
भगिनि
तालव्य यद्यपि सत्यं पश्यन्तु च च ज झ ञ इति वदनसमये च इत्यस्य वदनसमये जिह्वायाः स्पर्शः तालौ भवति साक्षात् परन्तु य इति वदनसमये जिह्वा तत्रैव कुत्रचित् अस्ति खलु न न अन्यत्र इति तत्र साम्यम् तालव्यवर्णः
एकः प्रश्नः अस्ति अत्र रकार मूर्धन्य इति वयं वदामः किन्तु साधारणतया भारतीयजनाः यादृशम् उच्चारणं कुर्वन्ति तत्तु तालव्यवत्तेव दृश्यते यादृशम् अमेरिकन् प्रोनौन्सियेशन् तादृशं भवति तदेव मूर्धन्य
सत्यं सत्यम् इत्युक्ते रोल्ड् इति अस्ति खलु रोल्ड् आर् इति रोल् कुर्वन्ति किञ्चित् जुह्वायाः इति तु सत्यं किन्तु वस्तुतः अन्यत्र कुत्रापि न स्थापयितुं शक्नुमः रकारं ऋ अपि च ऋ ऋ इति स्वरः अस्ति रकारः शकारः मूर्धायामेव भवति टवर्गीयवर्णान् इव इति
भगिनी वकारः
दन्तोष्टं वकारः सत्यं
तत्तु लकारः तु
दन्त्यः
दन्त्यः
सत्यं भगिनि ल इति यद्वदति कासुचित् प्रादेशिकभाषासु ल इति अस्ति खलु ल इति अस्ति तत्तु हा तत्तु मूर्धन्यः किन्तु लकारः संस्कृतभाषायां या यः लकारः तत्तु दन्त्यः एव ल
क्लोज़र टु द टीथ देन द रूट
क्लोज़र टु द टीथ आम् दन्त्यः इत्युक्ते दन्तेन सह स्पर्शः
not really teeth it's not really teeth it's closer to the teeth okay all right I'll take it
astu tari agre ha agre vidya bagini va agrima bhagam samapayatu
sandhi karyadau saukaryartham vyanjananam vibhagah anya prakarena api krutah asti ga gha nya jha jha nya dha dha na dha dha na भ भ म ह य व र ल एतानि मृदुव्यञ्जनानि ख ख छ छ ट ठ त थ प फ श क्ष स एतानि कर्कषव्यञ्जनानि कवर्गः चवर्गः टवर्गः तवर्गः पवर्गः च क्रमेण कु चु टु तु पु इति शब्दैः व्याकरणे व्यवहृताः भवन्ति अतः कु कवर्गः चु चवर्गः टु टवर्गः तु टवर्गः तु पवर्गः इति ज्ञातव्यं महेश्वरसूत्रार्थम् अत्र व्यञ्जनानाम् अन्यप्रकारेण विभागः कृतः. कर्कषव्यञ्जनानि तृतीय चतुर्थ पञ्चम प्रत्येकं सदस्यस्य तृतीयचतुर्थपञ्चमवर्णाः अपि च
प्रत्येकं
वर्गस्य तृतीयचतुर्थपञ्चमवर्णाः अपि च हयवरल एतानि मृदुव्यञ्जनानि. प्रत्येकं वर्गस्य प्रथम द्वितीय सदस्यौ कर्कषव्यञ्जनानि अपि च श क्ष स. यदि वयं संक्षेपे वर्गाणां विषये वक्तुम् इच्छामः तदा कु चु टु तूपु इति शब्दैः व्याकरणे चिह्नं ददाति. कु इत्युक्ते कवर्गः, चु इत्युक्ते चवर्गः, टु इत्युक्ते टवर्गः, तु इत्युक्ते तवर्गः, पु इत्युक्ते पवर्गः इति अस्ति.
हा, समीचीनमस्ति. एतादृशसङ्क्षेपव्यवहारः सूत्रेषु वयं पश्यामः. यदा स्वरसन्धि हल्सन्धिविषये सूत्राणि पश्यामः तदा एतादृशसङ्क्षेपाः दृश्यन्ते, बहुधा दृश्यन्ते इति. अस्तु, अग्रिमविषयः अस्ति माहेश्वरसूत्राणि इति. यथा पूर्वस्मिन् भागे भगिनी पठितवती, तत्र माहेश्वरसन्धिकार्यार्थं व्यञ्जनानां विभागः अन्यप्रकारेण अपि क्रियते. इत्युक्ते सन्धिकार्यस्य सिद्ध्यर्थं सूत्रस्य द्वारा सन्धिकार्यं कारयितुं, यथा इकोयणचि इति सूत्रमस्ति, अकः सवर्णे दीर्घः इति. तत्र सर्वत्र वयं पश्यामः इक् इति एकः समूहः वर्णानाम्, अक् इति एकः समूहः. तादृशभिन्नरीत्या वर्गीकरणम् अथवा व्यवस्थापनं क्रियते माहेश्वरसूत्रैः. तानि सूत्राणि कानि इति अग्रे पश्येम. सरला भगिनी अग्रे.
माहेश्वरसूत्राणि पाणिनि भगवतः ईश्वरस्य अनुग्रहात् इमानि सूत्राणि प्राप्य व्याकरणम् अरचयत्. प्रथमम् अ ए उ ऋ, द्वितीय ऋ ऋ क, तृतीय ए औ ङ, चतुर्थ ऐ औ च, पञ्चमं ह य व र त, षष्ठम् अल ण, सप्तम् ञम ङण नम, अष्टम् झब ञ, नवम् घ ढ दश, दशम् झब घ ड दश, एकादशम् ख प छ ठ थ च ट तव, द्वादशं कपय, त्रयोदशं शशसर, चतुर्दशं हल. एते चतुर्दशसूत्राणि सन्ति. तस्य विभजनं सामान्य क च क वर्ग च च त प वर्ग भिन्ना सन्ति. सौकार्यं भवति यदि वयं प्रत्याहारं दृष्टं.
हा हा, इतोपि स्पष्टं भवति अग्रे प्रत्याहारं दृष्ट्वा. किन्तु यद् भगिन्या उक्तं, सूत्रम् इत्युक्ते लघुवाक्यम् इति चिन्तयन्तु. चतुर्दशलघुवाक्यानि, एषु वाक्येषु भिन्नरीत्या वर्णानाम् आयोजनं कृतमस्ति. अपि च
एकप्रश्नः, हकारद्विवारं आगच्छति, हकारमेव द्विवारम् आगच्छति, तस्य विशेषता किमपि अस्ति वा?
तत्र एकं कार्यमस्ति, तत्तु पाणिनीयसूत्रविषयकः इति. किमर्थम् अग्रे आगच्छति इति प्रायः अग्रिमसप्ताहे वदिष्यामि. हकारः द्विवारम् अस्ति इति तु सत्यम् इति भिन्नविषयः एषः. किमर्थमिति अग्रे
महोदय.
हा, बालसुब्रह्मण्य महोदय.
अण् प्रत्याहारः द्विवचनं वक्तुं शक्यते किल? ऐ उन् अथवा लण् इति प्रत्याहारः अस्ति. ऐ ऊ ऋ ल् ए ओ ऐ औ हय वर ल सर्वाणि प्रत्याहारम् एकं वक्तुं शक्यते किल?
सत्यं सत्यं, तत्रापि एकं वैशिष्ट्यमस्ति बालसुब्रह्ममहोदयेन यद् अत्र उत्थापितं सर्वैः ज्ञातं वा प्रश्नः कः इति?
सम्यक्तया न श्रुतं।
हा तर्हि समीचीनः एव प्रश्नः, तत्र पश्यन्तु प्रथमसूत्रमस्ति ऐ इ उण् इति, तर्हि अण् इति प्रत्याहारः खलु, सः एव णकारः षष्ठे सूत्रे अपि अस्ति हयवरट् लण् इति। तर्हि बालसुब्रह्मण्य महोदयस्य प्रश्नः आसीत् अण् अथवा इन् इति वदनेन प्रथमनकारः भवति वा अथवा द्वितीयनकारः भवति वा इति। अस्तु तर्हि किं कुर्मः भगिनि? इति एव खलु बालसुब्रह्मण्यमहोदय प्रश्नः? हा अत्रापि संक्षेपे वदिष्यामि। तर्हि बालसुब्रह्मण्य महोदय व्याकरणवर्गे अपि अस्ति इण् कोः इति सर्वाणि सूत्राणि सन्ति खलु महोदय, तत्र इण् इत्युक्ते इकारात् आरभ्य लकारपर्यन्तम् इति एव अस्ति। अण् इति अण् नाम प्रथमम् अ इ उ इति पाणिनीय एकस्मिन् सूत्रे एव आगच्छति, तत् सूत्रे सूत्रार्थे निहितमपि अस्ति एषः एव प्रत्याहारः गृहीतव्यः इति। सूत्रस्य माध्यमेन सः सन्देहः निवारितः अस्ति पाणिनीयसूत्रेषु इति। किन्तु सामान्यतया अण् इति वदामश्चेत् द्वितीयः नकारः एव गृहीतव्यः भवति, यथा वयं जानीमः इण् प्रत्याहारे तु अस्माकं सूत्रेषु वयं दृष्टवन्तः इ उ इन् 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 हा व्याकरणवर्गे ये सन्ति तेषाम् इण् प्रत्याहारस्य परिचयः अस्ति खलु, इ उ ऋ ए ओ ऐ औ हयवर ल इति पर्यन्तं लकारपर्यन्तं गृहीतव्यम् इति तत्र निर्देशः प्राप्यते पाणिनीयसूत्रेषु। अण् इति एकस्मिन् कस्मिंश्चित् सूत्रे, सूत्रं न स्मरामि, कस्मिंश्चित् सूत्रे तस्य निर्देशः अपि लभ्यते इति भाति इति अस्ति।
धन्यवादः।
अस्तु अग्रे सरला भगिनि।
अत्र भगिनि अत्र कोऽपि अण् अस्ति चेत् सूत्रे अण् आत् ऐ ऋ ए ओ ऐ औ हयवर ल तु अस्ति सर्वदा नहि
न सामान्यतया द्वितीयः एव, यदा प्रथमः णकारः गृहीतव्यः भवति इत्युक्ते प्रथमसूत्रं गृहीतव्यं भवति अ इ उण् इति, तदा कुत्रचित् पाणिनिना एव निर्देशः दत्तः इति भाति इति अस्ति। अस्तु अग्रे सरला भगिनि।
एतानि महेश्वरसूत्राणि इति प्रसिद्धानि, एतानि चतुर्दशसूत्राणि महेश्वरात् आगतानि इति वैयाकरणानां मतम्। चतुर्दशानि सूत्राणि सन्ति, महेश्वर स्वयं यदा डमरु वादनं कृतं तदा एते चतुर्दश सूत्राणि अभवन्। एतेषु सूत्रेषु हयवर प्रभृतय वर्णाः सन्ति, हयवर प्रभृतय वर्णाः सन्ति इति, हयवर इति इत्यादय वर्णाः सन्ति।
तावदेव सत्यं,
हकारादिषु अकार उच्चारणार्थं प्रत्येक वर्णसः अकार अस्ति योजितं योज्य वयम् उच्चारामः।
भगिनि अत्र हयवर प्रभृतयः इति उक्तं यतोहि ह इत्यस्मात् आरभ्य व्यञ्जनानां समूहः आरभ्यते खलु, ऐ वन् ऋ ऋक् ए ओम् ऐ औच् तावत्पर्यन्तं स्वराः एव
स्वराः सन्ति
इति।
अकार आदिषु अकार
प्रभृतयः इत्युक्ते अर्थं किम्?
प्रभृतिः इत्युक्ते यः आदिः अस्ति हयवरः प्रभृतिः येषां ते हयवरप्रभृतयः आदिः आदिः इत्युक्ते आदिमः न आदिः आदिः इत्यादिः इति एक्सेट्रा आदिः इत्युक्ते आदिमः इत्युक्ते आरम्भः यत्र भवति सः यतोहि हयवर इति पञ्चमसूत्रमस्ति खलु हयवरट् तस्मात् सूत्रात् आरभ्य व्यञ्जनानाम् उच्चारणम् अस्ति इति
हकार आदेशु अकार उच्चारणार्थं हकार तस्मात् व्यञ्जनानि आरम्भन्ते तत्र अकार योज्ये उच्चारणं कुर्मः तेन हयवर इत्यनेन हयवर इत्येषां भवति यदि हयवर अकारसहित उच्चारयामः तर्हि व्यञ्जना हयवर तेषां वर्णानां वयं अवगच्छामः अयोगावाह तु महेश्वरसूत्राणि न अन्तर्भूता अयोगावाह इत्युक्ते अनुस्वर विसर्ग अति जिह्वामूलीय उपद्मानीय एत्रे न सन्ति महेश्वरसूत्राणि सूत्रेषु
इति अस्ति महेश्वरसूत्राणां परिचयः अधुना इतः अग्रे प्रत्याहारः इति विषयः
अत्र एतानि चतुर्दशसूत्राणि महेश्वरात् आगतानि इति अस्ति अत्र चतुर्दशसूत्राणि महेश्वरात् आगतानि तदर्थं माहेश्वराणि इति भवति तस्य प्रत्ययस्य नाम किम्
माहेश्वराणि इति वा माहेश्वर अस्तु उदाहरणं पाण्डुः पाण्डवः इति भवति खलु न पाण्डुः तदपि समीचीनं नास्ति आकारः यत्र भवति अथवा दाशरथि तद्वदस्ति महेश्वरः माहेश्वर इत्युक्ते दशरथस्य सम्बन्धः येन सह रामेण सह दशरथस्य अपत्यं पुमान् दाशरथि तद्वदस्ति माहेश्वरसूत्राणि कः प्रत्ययः इति न जानामि किन्तु तद्धितप्रत्ययाः इति एकः प्रत्ययानां श्रेणिः अस्ति तस्मिन् अन्तर्भूतः भवति दाशरथिः सौन्दर्यम् एतानि पदानि तेन इत्युक्ते माहेश्वरसम्बद्धानि माहेश्वरात् आगतानि माहेश्वरसूत्राणि दशरथात् आगतं दाशरथिः दाशरथम् इति अग्रे बालसुब्रह्मण्यं महोदय
प्रत्याहाराः एतेषु चतुर्दशसु माहेश्वरसूत्रेषु अपि स्वररहितम् एकैकं व्यञ्जनम् अन्ते श्रूयते तेन सह उच्चार्यमाणः आदिमः वर्णः मध्ये वर्तमानानां वर्णानां स्वस्य च बोधकः भवति यथा ऐ उन् इति सूत्रस्थस्य इकारस्य ऋलुक् इति सूत्रस्येन अन्तिमव्यञ्जनेन ककारणेन ककारेण सह उच्चारणे इक् इति शब्दः निष्पद्यते तेन इ उ ऋ लु इति वर्णाः उपस्थिताः भवन्ति एवम् उपसंहृत्य व्यवहृतः शब्दः प्रत्याहारः इति व्याकरणे प्रतितः स्पष्टप्रतिपत्तये केचन प्रत्याहाराः अत्र सविवरणं दृष्टाः सन्ति इत्युक्ते चतुर्दशमहेश्वरसूत्राणि सन्ति तत्र प्रतिसूत्रेषु अन्तिमः स्वररहितव्यञ्जनमेकम् अस्ति इत्युक्ते अर्धमात्रा व्यञ्जनमेकम् अस्ति उदाहरण ऐ उण् इण् ऋलिक् इक् इत्यादि सो प्रति प्रत्याहारं सूत्रं दत्तं समये प्रति आदिम प्रथम वर्णः अपि च वर्तमानां सर्वेषां सर्वे वर्णाः उच्यते परन्तु न अन्तिम व्यञ्जनः स्वररहितव्यञ्जनः
स्वररहितव्यञ्जनः व्यञ्जनं त्यक्त्वा
आदिमवर्णः अपि च अन्य वर्णाः उच्यन्ते यथा अ इ उन् इति सूत्रस्य इकारस्य ऋलित् इति सूत्रस्येन अन्तिमव्यञ्जनेन ककारेण सह उच्चारणे इक् इति शब्दः निष्पद्यते सो इ आरभ्य इक् अन्तिमसीमावर्णः उच्यते चेत् इ उ ऋ लि इति इत्यादिवर्णाः सन्ति इत् प्रत्याहारे
तर्हि तत्र किं जातं महोदय ककारः केवलम् उच्चारणार्थं ककारः अन्तर्भूतः वा
ककारः अन्तर्भूतः नास्ति
नास्ति
लोपः
तर्हि इक् इत्यस्य वर्णसङ्ग्रहस्य अथवा वर्णसमूहस्य नाम किम्
इक् प्रत्याहारः इति
हा समीचीनं प्रत्याहारः एवम् उपसंहृत्य इत्युक्ते आहत्य उपसङ्गृह्य व्यवहृतः शब्दः इक् इति यः शब्दः तस्य नाम प्रत्याहारः इति व्याकरणे
आहत्य इत्युक्ते आगतं वा
न आहत्य इत्युक्ते टोटलि इति सर्वम् उक्त्वा फैनली अथवा टोटलि इति वक्तुम् इति वक्तुमिच्छति चेत् आहत्य इति वक्तुं शक्नुमः अस्तु
धन्यवादः
हा अस्तु व्याकरणे प्रतितः इत्युक्ते प्रसिद्धः प्रत्याहारः इति प्रसिद्धः अस्ति अस्तु इदानीम् एकम् अभ्यासं कुर्मः अस्तु माहेश्वरसूत्राणि चतुर्दशानि पृष्ठतः सन्ति अस्मिन् पृष्ठे अस्ति तर्हि अहम् एकं प्रत्याहारं वदामि भवन्तः प्रत्याहारे के के वर्णाः अन्तर्भूताः इति वदन्तु इति कुर्मः तर्हि हा पुष्पा भगिनी अक् इत्यस्मिन् प्रत्याहारे
अक् इति प्रत्याहारे आ इ उ ऋ लृ सन्ति
सन्ति खलु तर्हि किं नकारः अपि नकारककारः हा नकारः अपि गच्छति ककारः अपि गच्छति तर्हि अत्र उच्यते यत् नकारः अपि च ककारः अथवा यः कोऽपि स्वररहितवर्णः अस्ति स्वररहितव्यञ्जनं यत्किमपि अस्ति तद्व्यञ्जनं तु सूत्रस्य सीमां स्थापयितुम् अथवा सूत्रस्य बौण्ड्री इति वदामः खलु तद् स्थापयितुमेव अस्ति अन् इति एकं एकः प्रत्याहारः इति बौण्ड्री करोति बौण्ड्री अथवा सीमां स्थापयति नकारः अस्तु अक् इत्युक्ते
भगिनि एकः प्रश्नः अस्ति कथं ककारः या ञकारः या चकारः अन्ते अस्ति कथं पाणिनि अत्र ककारः आयाति चकारः तत् ए औ ऐ औ कथं
किमर्थं किमर्थम् इति खलु
किमर्थं मकारः नास्ति ऐ औ
प्रश्नः समीचीनः तर्हि प्रायः तत्र उत्तररूपेण बिन्दुद्वयं वक्तुं शक्नोमि. पाणिनीयसूत्रेषु अपि तथा दृश्यते खलु. किमर्थं
पाणिनि कः भगिनि
प्रश्नः कः इत्युक्ते तत्र भगिनी पृच्छति यत् अण् इति उक्तं पाणिनिना खलु नकारः इति. तर्हि नकारस्य स्थाने किमर्थं न शकारः स्यात्, अश् इति किमर्थं न स्यात् तथा भगिनी पृच्छति. प्रथम तत्र किमपि विज्ञानम् अथवा कारणम् अस्ति वा इति. उत्तरं तु उत्तरं न जानामि, किन्तु ऊहां कर्तुं शक्नोमि. कुत्रचित् पाणिनीयसूत्रेषु अपि पाणिनिः किं वदति, एकं सूत्रं कस्मिंश्चित् सूत्रे शप् इति वदति. अस्तु, शप् इति एकः प्रत्ययः, प्रत्यये पकारः अपि गच्छति, शकारः अपि गच्छति, अन्ततो गत्वा न तिष्ठति. परन्तु यः वर्णः गच्छति तेन कार्यं निर्दिष्टं भवति एव गमनात् पूर्वं खलु. बालसुब्रह्मण्य महोदय, वयं तु पठितवन्तः. हा, इत्युक्ते पकारः अन्ते अस्ति चेत् यद्यपि पकारः गच्छति तस्य कार्यं तु अस्ति इति पाणिनिना सृष्टं सूत्रं. तथा किमपि स्यात् अत्र इति ऊहां कर्तुं शक्नुमः इति एव वक्तुं
शक्नुमः.
अत्र नास्ति भगिनि, न भगिनि अत्र नास्ति. उदाहरणार्थं उक्तवती किमर्थं न अत्र. महोदय, जगन्नाथमहोदय, अत्र किमपि नास्ति, सन्धिविषयकः चर्चा नास्ति, तर्हि चिन्ता नास्ति. केवलं भगिनी पृष्टवती यद् अस्तु नकारः एव किमर्थं स्थापितवान् अ इ उ न इति, अन्यत् किमपि स्थापयितुं शक्नोति किल इति सा पृष्टवती, तदर्थम् उक्तवती. किमपि कार्यं स्यात् तत्र नकारस्य सूत्रेषु अथवा तथा किमपि भवति, नो चेत् एवमेव पाणिनीयसूत्रेषु एकमपि पदं व्यर्थं नास्ति इति वदन्ति. तर्हि कोऽपि किमपि कारणं स्यादेव. अस्तु, तर्हि अक् इति प्रत्याहारे कोऽपि ध्वनिः आगच्छन् अस्ति, कृपया. हा, अक् इति प्रत्याहारः अच् इत्यस्मिन् राजी भगिनि
ऐ औ
ऐ औ. तर्हि अच्
सर्वे स्वरवर्णाः अन्तर्भूताः.
हा, सर्वे स्वराः अस्मिन् अन्तर्भूताः अच्. अस्तु, अल् इति राजी भगिनि पुनः.
अल् ऐ उ ऋ ए ओ ऐ औ हयवर ल हयवर ओ अल् रैट् ओके. सर्वे स्वराः अपि च सर्वे व्यञ्जनानि
सर्वाणि
एक आरम्भात् चतुर्दश सूत्रपर्यन्तं सर्वे वर्णाः.
समीचीनं. तर्हि एते प्रमुखप्रत्याहाराः सन्ति, अस्तु, सूत्रेषु बहुत्र आगच्छन्ति. इत्युक्ते अक् इति अच् अच् स्वरसन्धिः अच् सन्धिः इति उच्यते. किमर्थम् अत्र यथा भगिन्या प्रदर्शितम् अच् इत्युक्ते सर्वे स्वराः अन्तर्भूताः किल तत्र. अ इ उ ऋल् ऋ ए ओ ऐ औ
ऐ औ ऐ औ.
हा, इति सर्वे स्वरः, तदर्थं स्वरसन्धिः इत्युक्ते अच् सन्धिः. अपि च अल् इत्युक्ते सर्वे वर्णाः
सर्वे वर्णाः व्यञ्जनानि
व्यञ्जनानि. अस्तु, अधुना पुष्पा भगिनि, हल् इत्युक्ते
भगिनि एकः प्रश्नः अस्ति. पुस्तके अण् इत्युक्ते अ इ उ इत्येव दत्तमस्ति, अत्र अण् इत्युक्ते रुल् रु ए ओ ए ऐ औ एते अपि
सत्यं भगिनि. किन्तु तदेव बालसुब्रह्मण्यस्य प्रश्नः अपि आसीत् खलु, नकारः नकारः द्विवारं किमर्थम् इति खलु तत्र. यद्यपि अण् इत्युक्ते अ इ उ इति गृहीतः सूत्रेषु उल्लेखः प्राप्यते. अस्तु, अण् प्रत्याहारे द्वितीयनकारपर्यन्तं गन्तव्यं वा अथवा प्रथमनकारः पर्याप्तं वा इति सूत्रेषु प्राप्यते.
सामान्यतया अण् इत्युक्ते अ इ उ एकेव तदेव वा?
हा, इदानीम् अ इ उ इति चिन्तयामः.
अस्तु अस्तु.
अस्तु, तर्हि अन् प्रत्याहार भगिन्या उक्तमेव. अस्तु पुष्पा भगिनी, तर्हि हल् इत्यस्मिन् प्रत्याहारे?
हल् प्रत्याहारे सर्वे व्यञ्जनानि सन्ति.
सर्वाणि व्यञ्जनानि सन्ति.
सर्वाणि व्यञ्जनानि सन्ति. चतुर्थ माहेश्वरीसूत्रस्य
पञ्चमसूत्रात् आरभ्य, पञ्चमसूत्रात् आरभ्य
पञ्चमसूत्रात् आरभ्य त्रयोदश सूत्र
न न न न एकनिमिष, चतुर्दशसूत्रपर्यन्तम्.
अत्र चतुर्दश हा अस्ति न, पञ्चमी पञ्चम सूत्रे
हा द्विवारं गण्यते हकारः, किन्तु तत्रापि कारणमस्ति. किन्तु हल् इति यदा वदामः पञ्चमसूत्रस्य हयवर इत्यस्मात् आरभ्य अन्तिमलकारपर्यन्तम् इति आगच्छति. तर्हि हल् इत्युक्ते सर्वाणि व्यञ्जनानि अन्तर्भूतानि. एते किञ्चन हा एते केचन पञ्चमसूत्रात् आरभ्य चतुर्दशसूत्रपर्यन्तं हल् इति उच्यते, सर्वाणि व्यञ्जनानि. तर्हि एते केचन प्रमुखप्रत्याहाराः सन्ति. अच् इत्युक्ते सर्वे स्वराः, अल् इत्युक्ते सर्वे वर्णाः, संस्कृतवर्णमालायां यावन्तः वर्णाः ते सर्वे अन्तर्भूताः. हल् इत्युक्ते सर्वाणि व्यञ्जनानि इति. अधुना राजी भगिनी, अनन्तरम् अन्येन कोऽपि, अन्येन केनचित् आगतं खलु, कोऽपि अस्ति वा यः एतावत्पर्यन्तं न पठितवान् अथवा उक्तवान्?
अल् अल् भगिनि,
अल् इत्युक्ते
अल् इत्युक्ते सर्वे व्यञ्जनानि, सर्वे वर्णानि.
हा सर्वे वर्णाः, सर्वे स्वराः इति अस्ति.
सर्वे वर्णाः, सर्वे स्वराः.
अधुना जगन्नाथमहोदय, हर्ष इत्यस्मिन्?
हर्ष इत्युक्ते हयवर ल न्यमगण न झ घ ढ पर्यन्तम्.
हर्ष इति तालव्यशकारः, भवता यदुक्तं मूर्धन्य.
जबगडद पर्यन्तं.
जबगडद, सत्यं सत्यं, समीचीनं.
सर्वे मृदुव्यञ्जनानि.
मृदुव्यञ्जनानि. अधुना उपरितनभागे विद्या भगिन्या यत् पठितं परिच्छेदः, यः परिच्छेदः पठितः, तत्र पश्यन्ति चेत् ग घ ञ ज झ ञ ड ड ण द ध न ब ब भ म हय वर ल इत्येते एव मृदुव्यञ्जनानि इति उच्यन्ते. तेषां सङ्केतः भिन्नरीत्या पाणिनिना कृतः. हर्ष इत्यस्य वदनेन एते एव वर्णाः अन्तर्भूताः सन्ति, मृदुव्यञ्जनानि इति. सूत्रेषु हर्ष इत्यस्य प्रयोगः भवति. तर्हि हर्ष इति वदति चेत् संक्षेपरूपेण एते सर्वे गृहीताः भवन्ति इति. अस्तु लक्ष्मी, हा प्रश्नः अस्ति
वा?
पञ्चम वर्गे वर्गव्यञ्जनानि, वर्गीयव्यञ्जनानि तत्तु
हयवरल इति. हा सत्यम्. अस्तु सरला भगिनी, कस्यचित् प्रश्नः?
हयवरल प्रथमं वर्गीयव्यञ्जनानि सन्ति, तदनन्तरम् अनुनासिकव्यञ्जनानि सप्तमे सूत्रे, तदनन्तरं चतुर्थ सदस्यव्यञ्जनानि अष्टमनवं सूत्रे, दश सूत्रे तृतीय सदस्य वर्गस्य व्यञ्जनानि सन्ति.
हा हा समीचीनं भगिनि, इति एव वक्तुं शक्नुमः. अस्तु हयवर इति, हयवरल इति पञ्चमे अपि च षष्ठे सूत्रे अवर्गीयव्यञ्जनानि ये मृदुव्यञ्जनेषु सन्ति. अनुनासिकाः सर्वे एकस्मिन् सूत्रे, अष्टमे सूत्रे. झबगडध चतुर्थसदस्याः, झबगडद इति दशमे सूत्रे तृतीयसदस्याः इति. समीचीनम्. इति अस्ति पाणिनिना कृतम् आयोजनम्. अस्तु लक्ष्मी भगिनी, अधुना खर् प्रत्याहारे
खर्प्रत्याहारे एते वर्णाः सन्ति,
एते वर्णाः सन्ति अपि च एतानि व्यञ्जनानि सन्ति इति अपि वक्तुं शक्नुमः, यतोहि स्वराः न सन्ति खलु. हा स्वराः ऐ ओन् ऋल् ऋक् ए ओम् ऐ औच् एतेषु चतुर्षु सूत्रेषु समाप्ताः सर्वे स्वराः. तदनन्तरं सर्वाणि व्यञ्जनानि. हा समीचीनं भगिनि, तर्हि खर् इत्युक्ते कीदृशव्यञ्जनानि?
कर्कशव्यञ्जनानि,
कर्कशव्यञ्जनानि इति उच्यन्ते. अस्तु अग्रे राधिका भगिनी, जश् इत्यस्मिन् प्रत्याहारे
जबगडद इति.
जबगडद, हा समीचीनम्. अस्तु इदानीं हा विद्या भगिनी, झष् इति प्रत्याहारे
किं भगिनि पुनः?
अधुना राधिका भगिन्या, हा राधिका भगिन्या झष् इति उक्तं, जबगडद झष् इति, झष् इति इदानीं झष् इति.
शकारः मूर्धन्यशकारः वा?
हा मूर्धन्यशकार तालव्य उभयोः अपि किञ्चित्.
झष् इत्युक्ते अत्र झभ घडध झष् इति झष् तालव्यशकारः अस्ति चेत् झभ गडध झभ गडध
अस्तु. इत्युक्ते वर्गीयव्यञ्जनानां के के सदस्याः एते
वर्गीयव्यञ्जनानां? प्रथम झष् चतुर्थ व्यञ्जनानि, वर्गस्य चतुर्थव्यञ्जनं झष्. झष् शकारः तालव्य अस्ति चेत् चतुर्थ तृतीय वर्गस्य चतुर्थ तृतीय व्यञ्जनानि.
हा समीचीनमस्ति. अस्तु अग्रे बालसुब्रह्मण्यमहोदय, झल् इत्यस्मिन् प्रत्याहारे बालसुब्रह्मण्यमहोदय अस्ति वा?
क्षम्यताम् अहं झल् इति किल महोदय?
झल् आमां
झल् झ भ झ ध ध झब गड ध ख फ चटथ छटथ कफ षष ह इति.
हा समीचीनं. सरला भगिनी किमपि उक्तवती खलु,
अननुनासिकवञ्चानि झल् प्रत्याहारे सन्ति.
हा बहु समीचीनं भगिनि, कथम् इति किञ्चित् वदति वा?
न्यमगणन सप्तमे सूत्रे अनुनासिकव्यञ्जनानि सन्ति, तदनन्तरं झभ गडध चतुर्थसदस्या, दशम सूत्रे तृतीयसदस्या, एकादशसूत्रे द्वादशसूत्रे द्वितीय प्रथमसदस्य वर्गस्य षष वर्गीयवञ्चनानि सन्ति.
हा भवत्या भवत्या यदुक्तं सर्वं समीचीनम्. अनुनासिकव्यञ्जनानि झलि न अन्तर्भूतानि इति तु सत्यं, परन्तु झलि यकारः वकारः रकारः अपि नास्ति खलु?
आम्
हा इति नास्ति, तदर्थम् आहत्य अनुनासिकव्यञ्जनानि इति वक्तुं न शक्नुमः, यतोहि यकारः वकारः रकारः इति नास्ति, किन्तु भवत्या यद् सूचितं तत् समीचीनमेव. आधिक्ये अनुनासिकव्यञ्जनानि त्यक्तानि झल् प्रत्याहारात् इति तु सत्यं. झल् इति अपि एकः प्रमुखः प्रत्याहारः अस्ति, सूत्रेषु बहुत्र आगच्छति. अस्तु राजी भगिनी, अधुना यण् इति प्रत्याहारः यावरल हा इति अपि प्रमुखः प्रत्याहारः, सूत्रेषु आगच्छति इको यणचि. इदानीं राजी भगिनी एव, चर् इति प्रत्याहारे
षष,
किन्तु च इति कुत्र अस्ति?
कप चटत च किल?
हा 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 एकादश एकादशसूत्रे अस्ति खलु
सूत्रे अस्ति
एकादशसूत्रे अस्ति किन्तु एकादशसूत्रे प्रथम प्रथमव्यञ्जनं नास्ति खलु प्रथमवर्णः नास्ति खलु
चर् नास्ति द्वितीयवर्गीय व्यञ्जनानि नास्ति द्वितीयसदस्य व्यञ्जनानि नास्ति तद्विहाय चट कप सष चटत प्रथमवर्गीय व्यञ्जनानि अपि च सषस
सषस समीचीनं तर्हि अनेन वयं ज्ञातुं शक्नुमः यत् प्रत्याहारः प्रत्याहारे केवलं सूत्रस्य अथवा माहेश्वरसूत्रस्य प्रथमव्यञ्जनम् अथवा प्रथमवर्णं वर्णः भवतु इति नास्ति प्रत्याहारे अस्माभिः विवक्षितः प्रथमवर्णः अस्ति चेदपि समीचीनम् अस्तु यतोहि अधुना राजी भगिनी यदुक्तवती एकादशसूत्रे पश्यन्तु क प छ ठ थ छट त इति चकारात् आरभ्य तत्र त्रयोदशे सूत्रे रकारपर्यन्तं रकारं त्यक्त्वा चर् इति आसीत् चठ त कपै शश स बुद्धम् अस्तु समीचीनम् अस्तु पुष्पा भगिनी तर्हि यै कुतश्चित् एकनिमिष भगिनि कुतश्चित् ध्वनिः आगतः अस्ति 5617 2 2 यः कोऽपि
यै तु यावर यावरला यमड अनुनासिक व्यञ्जनानि जभ गडध जभ जभ गडध कफ चथ का चथ कप तत्तु सर्वे वर्गाणि व्यञ्जनानि
सर्वे सर्वाणि व्यञ्जनानि
सर्वाणि व्यञ्जनानि तु शशस त्यजित्वा
त्यक्त्वा हा समीचीनं भगिनि हकारं च शशस त्यक्त्वा सर्वाणि व्यञ्जनानि यै इत्यस्मिन् अन्तर्भूतानि अस्तु एतानि एते केचन प्रमुखप्रत्याहारः वारं वारं सूत्रेषु आयान्ति स्वरसन्धिसूत्रेषु हल्सन्धिसूत्रेषु तर्हि प्रचुर अभ्यासः भवतु गृहे शक्यं चेत् अद्य प्रायः करपत्रस्य पठनार्थं समयः न स्यात् किन्तु करपत्रे अपि अस्ति माहेश्वरसूत्राणाम् आयोजनम् अत्रापि अस्ति अहं तु वदामि यत् प्रिण्ट् औट् स्वीकुर्वन्तु कुत्रचित् स्थापयन्तु भित्तौ वा कुत्रचित् तदा प्रत्याहाराणां दर्शनेन यथा अत्र हा प्रमुखप्रत्याहारान् कुत्रचित् लिखित्वा अथवा अस्य एव प्रिण्ट् औट् स्वीकृत्य कुत्रचित् स्थापयन्तु वारं वारं दर्शनेन मनसि स्थास्यन्ति इति
अत्र आपोगवाहाः तु माहेश्वरसूत्रेषु नान्तर्भूताः इति वदति तत् अर्थं किम्
इत्युक्ते माहेश्वर भगिनि माहेश्वरसूत्रेषु अनुस्वारः अस्ति वा
नास्ति वसर्गात् तु नास्ति तत्तु पफा अस्ति
हा एकनिमिष विसर्गः एकनिमिष एकनिमिष माहेश्वरसूत्रेषु अनुस्वारः नास्ति विसर्गः नास्ति जिह्वामूलीयः इत्युक्ते अर्धविसर्गः तदपि नास्ति उपद्मानीयः इत्युक्ते पकारात् फकारात् पूर्वम् अर्धविसर्गः तदपि नास्ति इति कृत्वा अयोगवाहाः महेश्वरसूत्रे न भवन्ति तेषां योगः नास्ति इति किन्तु पाफा अयोगवाहः नास्ति खलु भगिनि क ख अयोगवाहः नास्ति जिह्वामूलीयः इत्युक्ते किं खाभ्यां पूर्वं नाम ककारात् वा खकारात् वा पूर्वं यः अस्ति अर्धविसर्गसदृशः वर्णः कखाभ्यां पूर्वः सः जिह्वामूलीयः. स्वयं ककारः स्वयं खकारः न, ककारात् पूर्वः यः अर्धसदृश अर्धविसर्गसदृशः सः योग जिह्वामूलीयः. तद्वदेव पफाभ्यां पूर्वः यः अर्धसदृशवर्णः सः उपद्मानीयः. अस्तु समीचीनम्. अस्तु भगिनि अग्रे भवती पठितु प्रश्नः अस्ति वा
भगिनि? अत्र हल् प्रत्याहारः इति वदामश्चेत् सर्वाणि व्यञ्जनानि इति वदामः, परन्तु वयं चतुर्दशमं सूत्रं पश्यामश्चेत् अत्र हल् इति अस्ति. हल् इत्युक्ते सर्वाणि व्यञ्जनानि वा अथवा वयं ह एव इति एकं व्यञ्जनमेव इति वदामः वा, किञ्चित् वदतु.
हा, हल् इत्युक्ते सर्वाणि व्यञ्जनानि भगिनि. तत्रापि कारणमस्ति, केनचित् सूत्रेण पुनः निर्देशः उक्तः स्यात् पाणिनिना. हल् इत्युक्ते सामान्यतया पञ्चमसूत्रात् आरभ्य चतुर्दशसूत्रपर्यन्तं यानि यानि सन्ति तानि सर्वाणि.
अत्र भगिनि
एकनिमिषः भगिनि, विद्या भगिनि बुद्धं वा विद्या भगिनि?
क्षम्यतां भगिनि, ऐ थिङ्क् लक्ष्मी भगिन्याः प्रश्नः आसीत्.
ओ क्षम्यतां, लक्ष्मी भगिनि.
आं भगिनि.
हा अस्तु, हल् इत्युक्ते सर्वाणि व्यञ्जनानि इत्येव गृहीतव्यानि भवन्ति भगिनि, न तु केवलम् अन्तिमः इति. अस्तु अस्तु पुष्पा भगिनि.
अत्र जल् प्रत्याहारः किम् अस्ति चेत् हकारः अस्ति अत्र सर्वाणि सर्वे अनुनासिकवर्णानि तत्तु यवर नास्ति त्यक्त्वा सर्वे व्यञ्जनानि अस्ति जल् प्रत्याहारः.
समीचीनं भगिनि,
तदैव हा अस्ति अत्र.
सम्यक् समीचीनं समीचीनं. तर्हि अवगतं वा पुष्पा भगिन्या यदुक्तं लक्ष्मी भगिनी? हा इत्युक्ते झल् इत्यस्मिन् प्रत्याहारः इत्यस्मिन् प्रत्याहारे हकारः अपेक्षितः खलु. झल् इति प्रत्याहारे सूत्रेषु आगच्छति झलां जशौ इत्यादिषु. हा झलो जलि, तत्र झल् प्रत्याहारे हकारः अपेक्षितः. अस्तु, तदर्थं स्थापितं स्यात् तत्र इति भगिनी उक्तवती. एकवारं हल् इत्यस्मिन् अपेक्षितं, पुनः झल् इत्यस्मिन् अपि अपेक्षितं, परन्तु झल् प्रत्याहारे अन्यानि व्यञ्जनानि यवर ल यमगणन एतानि न अपेक्षितानि खलु. तदर्थम् एतादृशविभजनं कृतम् इति पुष्पा भगिनी उक्तवती. प्रायः तदेव कारणमपि स्यात् इति चिन्तयामि. अस्तु समीचीनमेव. अस्तु भगिनि, पुष्पा भगिनि अग्रे पठति वा प्रत्याहारेषु? एकनिमिषः चतुर्थ एकनिमिषः षष्ठे पुटे प्रत्याहारेषु रक्तवर्णे भगिनि षष्ठे पुटे प्रत्याहारेषु विषयद्वयं
प्रत्याहारेषु विषयद्वयं ज्ञातव्यं. प्रथमविषयः सूत्राणाम् अन्ते विद्यमानानां स्वररहितानां व्यञ्जनानां ग्रहणं न भवति, तेषाम् इत् इति संज्ञा भवति, इत् संज्ञकस्य लोपः भवति. तथा अक् इति सूत्रे अत्र आ इ उ ऋ ऋ इत्येतेषां वर्णानां ग्रहणं भवति, न तु नकारककारयोः ग्रहणम् नकारककारयोः ग्रहणम्. अत्र सूत्राणाम् अन्ते
किमस्ति तत् स्वररहितानां व्यञ्जनानां न ग्राह्यं सूत्रे तत्तु प्रत्याहारे अत्र इक् इति संज्ञा भवति इति संज्ञा भवति इत्संज्ञकस्य लोपः भवति
इति जानीमः एव अन्तिमव्यञ्जनस्य लोपः सः व्यञ्जनः सः वर्णः अथवा तद्व्यञ्जनम् इत्संज्ञकम् इति वदामि संज्ञकम् इत्युक्ते नामकरणं तावदेव इति नामकरणं
कृतं तथा इदानीं पद्मः अत्र अक् प्रत्याहारे आयि ऊरु अस्ति न तु नकारः च ककारः
अस्तु भगिनि समीचीनम् अग्रे
अग्रे आदिमः वर्णः वर्णौ वर्णः न वर्णः न नाम सूत्रेषु आद्यः वर्णः इति न अर्थः किन्तु अस्माभिः आदिमत्वेन विवक्षितः वर्णः इत्यर्थः विवक्षितः वर्णः इत्यर्थः यथा इक् यन् चर् इत्यादिषु प्रत्याहारेषु इ य च इत्येते वर्णाः माहेश्वरसूत्रेषु आदिमाः न सन्ति व्यञ्जनानि प्रायः स्वरैः सह उच्चार्यन्ते आदिमः वर्णः नाम सूत्रेषु आद्यः वर्णः इति न
इदानीम् इक् प्रत्याहारं पश्यतु पञ्चमपुटे अण् इत्यस्मिन् इ अकारः एव आदिमः खलु आरम्भे अस्ति न तु इकारः तथापि इक् इति एकः प्रत्याहारः यतोहि अस्माभिः इष्यते वयम् इच्छामः इक् इति प्रत्याहारं वयम् इच्छामः इत्युक्ते पाणिनिः एव सूत्रेषु इकोयणचि इत्यस्मिन् इक् इति इच्छति यद्यपि इकारः आदिमवर्णः नास्ति तथापि अस्माभिः विवक्षितः आदिमत्वेन विवक्षितः वर्णः
तथैव यण् आदिमः नास्ति यण् तु मध्ये अस्ति
अस्तु समीचीनं भगिनि तर्हि अग्रे पठनं मास्तु इति भाति केवलं उच्चारणं कथं भवति इति स्वरस्य साहाय्येन व्यञ्जनानाम् उच्चारणं भवति इत्यस्य निदर्शनमस्ति तावदेव इतः अग्रे सर्तुं शक्नुमः राजी भगिनि अग्रे
किं भगिनि संयुक्ताक्षरं
हा संयुक्ताक्षरं
संयुक्ताक्षरम् इद् इर् इत्येन इत्येते व्यञ्जने द्र इत्येतत् संयुक्ताक्षरं स्वरव्यञ्जनयोः सन्निधौ यदा विकारः भवति तदा सन्धिः इति उच्यते विकारः नाम कस्यचित् वर्णस्य आदर्शनं कस्यचित् अन्यस्य वर्णस्य प्रयोगः वा यथा विनद्ययोगः उच्चैः विनद्योच्चैः अत्र आ उ इत्येतयोः वर्णयोः सन्निधौ सति तयोः स्थाने ओकारः सम्पन्नः अयं च विकारः अतः एषः सन्धिः किन्तु किं योगः अकुर्वत किमकुर्वत अत्र मकारः अकारः इति वर्णयोः सन्निधौ सत्यपि कोऽपि विकारः न सम्पन्नः केवलं मकारः योगः अकारः इत्यनयोः स्थाने म इति लिखितम् अतः एषः न सन्धिः संयुक्ताक्षरम् इत्युक्ते इद् योगः र इत्येते व्यञ्जने द्र इति संयुक्ताक्षरं स्वरव्यञ्जनयोः
एकनिमिष संयुक्ताक्षरम् इत्युक्ते अत्र हा भवती यदुक्तवती तत् सत्यमेव तर्हि अत्र किं दृश्यते द अपि च र अनयोः मध्ये किम् अस्ति
अनयोः मध्ये कोऽपि नास्ति,
हा किमपि नास्ति,
किमपि नास्ति,
हा तादृश
द्रयोगे किमपि अच्छवर्णः नास्ति, द अपि व्यञ्जनवर्णः, रेपा अपि व्यञ्जनवर्णः, मध्ये किमपि नास्ति, तदेव संयुक्ताक्षरम् इति वदामः.
हा समीचीनं समीचीनम् अस्तु. हलोनन्तर इत्युक्ते हल् वर्णयोः मध्ये, हल् वर्णः इत्युक्ते व्यञ्जनं, तयोः मध्ये स्वरः नास्ति इति
संयुक्तः नास्ति.
अस्तु भगिनि, अग्रे सन्धिः इति कदा उच्यते?
सन्धिः यदा विकारः भवति तदा सन्धिः, द्वयवर्णयोः मेलने यदा विकारः भवति तदा सन्धिः इति उच्यते. विकारः नाम कस्यचित् वर्णस्य लोपः भवति, कस्यचित् वर्णस्य प्रयोगः भवति.
हा समीचीनम् अस्तु. अत्र उदाहरण अत्र उदाहरणद्वयं दत्तं, तत्र किञ्चित् वदतु कुत्र लोपः.
विनद्य योगः उच्चैः प्रथमपदस्य अन्ते अकारः अस्ति, द्वितीयपदस्य आरम्भे उकारः अस्ति, अकार उकारयोः मेलनेन ओकारः भवति, तत् सन्धि इति उच्यते.
समीचीनम्. विकारः, विकारः इत्युक्ते परिवर्तनम् इति.
परिवर्तनं आम्, अतः एषः सन्धिः. किन्तु द्वितीय उदाहरणे किं योगः अकुर्वत, किम् अकुर्वत, तत्र सन्धिः नास्ति. सन्धिः मकारः अकारः केवलं वर्णमेलनम् एव, तत्र कोऽपि विकारः न सम्पन्नः अथवा सन्धिः नास्ति.
हा सन्धिः नास्ति, किन्तु तत्रापि सन्निधिः अस्ति अथवा सामीप्यम् अस्ति खलु, नैकट्यं सामीप्यं किं योगः अकुर्वत तत्रापि अस्ति, परन्तु विकारः न जातः इति कृत्वा तत् सन्धिः नास्ति इति
वदामः.
अस्तु समीचीनम्. इति सन्धिः अस्ति, सन्धेः नियमः अस्ति वर्णानां सामीप्यं, सन्निधिः, संहिता अपि च परिवर्तनं. अस्तु अग्रे जगन्नाथमहोदय.
सन्धिः यदा भवति तदा तत्र आदेशः, आगमः, लोपः, प्रकृतिभावः वा भवति. एते चत्वारिंशत् चत्वारि कार्याणि भवन्ति, सन्धिकार्यम् इति उच्यन्ते. प्रथम आदेशः, पूर्वं स्थितस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उदयः आदेशः. एतां प्रक्रिया पश्यत. यदि योग अपि, यद् योग, इ योग, आ योग, पि यद् योग, यु योग, आ योग, पि तत्तु यद्यपि इति भवति. इकारस्य स्थाने यकार आगच्छति, इकार गच्छति, तस्मात् आदेशः इत्युक्ते एकस्मिन् स्थाने अन्य वर्णस्य आगमनम्.
आगमः इति न वदामः, यतोहि आगमः इति अपि पारिभाषिकशब्दः अस्ति, इत्युक्ते टेक्निकल् टर्म् अस्ति व्याकरणे. आगमः इत्युक्ते आगच्छति इति तु सत्यं, भवता यदुक्तं, व्याकरणक्षेत्रे आगमः इति भिन्नः, आदेशः इति भिन्नः. अस्तु, अपि च यथा भवता उक्तम् एकस्य वर्णस्य स्थाने आगच्छति, सः वर्णः गच्छति. हा
यद्यपि अत्र पुस्तके आदेशः इत्युक्ते पूर्वं सिद्धस्य वर्णस्य स्थाने इति उक्तमस्ति, परन्तु सूत्रेषु पूर्वपरयोः स्थाने इति अपि अस्ति किल?
हा किं हा सत्यं भगिनि, भवती यद् वदति तत् सत्यम्। अत्र पूर्वस्थितस्य वर्णस्य इत्युक्ते पूर्वस्यां स्थित्यां, पश्यतु यदि योगः अपि इति एका स्थितिः अस्ति खलु, दशा, एका दशा अस्ति, तस्यां स्थित्यां यः वर्णः सः पूर्वं पूर्वस्थितवर्णः खलु, तावदेव अत्र विवक्षा। केवलं पूर्वं यदस्ति तस्य स्थाने इति न, पूर्वस्थितस्य वर्णः इत्युक्ते पूर्वस्यां दशायाम् अथवा पूर्वस्यां स्थित्यां यः वर्णः आसीत् सः अनन्तरं ना भवति इति, तावदेव अर्थः।
अस्तु अस्तु भगिनि,
अस्तु विद्या भगिनि, भवती एव अग्रे आगमः इति पठतु।
आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः आगमः एतां प्रक्रियां पश्यत। अनिच्छन् योगः अपि अनिच्छन्नपि इति भवति। अत्र नकारात् पूर्वम् अपरः नकारः उत्पन्नः अस्ति, एषः आगमः। आगमः अपि सन्धिकार्यमस्ति। आगमः मित्रवत् आगच्छति इत्युक्ते किमपि वर्णस्य स्थाने न आगच्छति, अपि इन् एडिशन् टु तथा आगच्छति। वर्णात् पूर्वं वा परं वा नूतनवर्णस्य उदयः भवति। यथा उदाहरणे अनिच्छन् योगः अपि अनिच्छन् अपि, अत्र नकारः अकारात् पूर्वम् आगच्छति, आगमः अनिच्छन् अपि इति।
समीचीनम्। अत्र अस्मिन् उदाहरणे यत् भगिन्या प्रदर्शितं तत्र न कोऽपि वर्णः गच्छति, सर्वे वर्णाः सन्ति तत्रैव, आगच्छन् इत्यस्मिन् अपि इत्यस्मिन् सर्वे वर्णाः सन्ति, तयोः मध्ये इतोपि एकः नकारः, स एव आगमः। हा अपि च भगिनी यथा उक्तवती आगमः मित्रवदस्ति, तदर्थमेव, यतोहि आगमः आगच्छति इत्यनेन न कोऽपि वर्णः लुप्तः भवति, न कस्यचिदपि लोपः, अतः आगमः मित्रवद् इति वदन्ति, आदेशः शत्रुवद् इति। यतोहि यदा आदेशः भवति तदा कस्यचित् वर्णस्य लोपः भवति एव इति, कस्यचित् वर्णस्य स्थाने आगच्छति आदेशः। अस्तु अग्रे राधिका भगिनि।
अस्तु, लोपः वर्णस्य अदर्शनं लोपः, एतां प्रक्रिया पश्यत। समवेताः युयुत्सवः, समवेता विसर्गः युयुत्सवः, समवेता युयुत्सवः विसर्गः गच्छति, समवेता युयुत्सवः इति सम्पन्नः। अत्र समवेता इत्यतः परस्य विसर्गस्य अदर्शनं एषः एव लोपः इति उच्यते अत्र। सो विसर्गः गच्छति, विसर्गः न दृश्यते अन्तिम रूपे, अतः एषः एव लोपः इति वर्णनं भवति।
हा केवलं विसर्गः न, अन्येषामपि लोपः भवितुम् अर्हति इति अग्रे पश्यामः।
अस्तु
इति अस्ति। अस्तु लक्ष्मी भगिनी अन्तिमं किञ्चित् पठित्वा।
प्रकृतिभावः निमित्ते सत्यपि लोपादेः अभावः प्रकृतिभावः, यथा अनादि योगः उभौ, अनाद् योगः ईकारः योगः उकारः योगः भौ, अनादि उभौ, अत्र ईकार उकार एतयोः वर्णयोः सन्धौ यकारस्य उदयः भवेत् किन्तु न भवति, एषः प्रकृतिभावः।
हा प्रकृतिभावः इत्युक्ते भगिनि?
अत्र ईकारः ईकार उकारयोः योजनेन यकारस्य उदयः भवति स्म, परन्तु यकारः न आगच्छति। अत्र अनाद्युभौ इति यण् सन्धिः भवति स्म परन्तु न भवति, अत्र सन्धिकार्यस्य निमित्तमस्ति परन्तु
सन्धिः न भवति,
सन्धिः न भवति, स एव प्रकृतिभावः इति
उच्यते. समीचीनम्. अस्तु, अन्तिमवाक्यम्.
आदेशः, आगमः, लोपः, प्रकृतिभावः वा यदा भवति तदा तस्य कार्यस्य सन्धिकार्यम् इति व्यवहारः. अत्र यदि आदेशः अथवा आगमः अथवा लोपः अथवा प्रकृतिभावः एते चत्वारः एतानि चत्वारि कार्याणि इति सम्भवन्ति चेत् तदा वयं सन्धिकार्यं सन्धिकार्यम् इति भवति इति वदामः.
अस्तु, इति सन्धेः कश्चन परिचयः, महेश माहेश्वरसूत्राणामपि परिचयः जातः. तर्हि यथा मया उक्तं, कृपया माहेश्वरसूत्राणां कण्ठस्थीकरणं बहु लाभाय भवति अग्रे गत्वा पाणिनीयव्याकरणे प्रवेशाय. तर्हि तत्र किञ्चित् प्रयत्नं कुर्वन्तु. अस्तु,
अत्र निमित्ते सत्यपि इति अस्ति, तत्तु सतिसप्तमी, तस्मिन् विषये किञ्चित् वदति वा?
हा हा, सतिसप्तमी अस्ति, सः अपि पाठः अग्रे आगच्छति, किन्तु स्थूलरीत्या वदामि. निमित्ते सत्यपि इत्युक्ते निमित्तम् अस्ति. अस्तु, सतिसप्तमी प्रयोगः यदा तदा इत्यस्मिन् अर्थे आगच्छति. इत्युक्ते शिक्षके आगते बालकाः उत्थितवन्तः, तावदेव. शिक्षकः आगतवान् तदा बालकाः उत्थितवन्तः इत्यस्य वदनस्थाने शिक्षके आगते, तद्वदेव. निमित्ते सति, यदा निमित्तम् अस्ति. सत् इति शत्रन्तपदमस्ति अस् धातोः. तस्य सप्तमी प्रयोगः यथा भवान् इत्यस्य भवति इति भवति, तद्वत् सति इति. तर्हि निमित्ते सति, तत्र सतिसप्तमी प्रयोगे सप्तमीविभक्त्यां भवन्ति पदानि. निमित्ते सत्यपि लोपादेः अभावः इति उक्ते तदेव, तावदेव. यदा निमित्तम् अस्ति तदा लोपः न भवति इति.
धन्यवादः.
अस्तु
अस्तु भगिनि, धन्यवादः.
धन्यवादः. शुभरात्रिः.
शुभरात्रिः. धन्यवादः.
धन्यवादः. शुभरात्रिः.